शृणुता भव्यात्मन् शृणुता भव्यात्मन् ज्ञानमती मातुः सुकथा प्रथमा बालयोगिनी साध्वी जैन शासने मान्या सा शरद पूर्णिमा तिथिरासि रात्रौ मोहिनी माता जनयत् श्रीकैत नगरस्य गृहे से गृणः ब्रह्म व्रतम् त्वां दृष्ट्वा महत्प्रसन्नोऽभूत् तस्यैवाज्ञां शिरसि धृत्वा तत्प्रथमं शिष्यं प्राप्नोत्
संज्ञाया
साधूनां साधवीनां च सर्जिका ग्रन्थरचयत्र पिसा शृणुतात् शृणुतात् भो भव्यात्मन् कर भगवता जन्मभूमि शुनु तन रचनाम करोत् पंच कल्याणक तीर्थेष्वपि गत्वात्मानं पावनं करोत्
जीव जीव
शत साधूनां सानिध्यः प्राप्तः महापञ्च कल्याणकेत्सवे बिम्बोऽयं पूज्यः जातः
नमति चन्दनामतिः कथयति कल्याणाय भवतु प्रतिमा शृणुतात् शृणुतात् भो भव्यात्मन् ज्ञानमती मातुः सुकथा
प्रथमा बालयोगिनी साध्वी जैन शासने मान्या सा